एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधि सभायाः उपसभामुख पदाय निर्वाचनम् विधीयमानम् वर्तते अद्य दिवात्रिवादने प्रतिनिधि सभायाः उपवेशे निर्वाचनमिदम् भवति प्रतिनिधि सभायाः रिक्ताय उपसभामुख पदाय द्वयोर्जनयोः प्रत्याशिता वर्तते सत्तारूढस्य गठबन्धनस्य पक्षतो नेपाली कांग्रेस दलस्य सचेतक पदीयया पुष्पा भूषाल गौतमेन नेकपा एमाले दलस्य पक्षता सांसदेन विद्या भट्टराई इत्यनया च प्रत्याशिता पंजीकारितास्ति सचेतक पदीयायाः भूषालस्य प्रत्याशितायां नेकपा माओवादी केन्द्रस्य प्रमुख सचेतकः देवप्रसाद गुरूङ प्रस्तावकः नेकपा एकीकृत समाजवादी दलस्य लक्ष्मी कुमारी चौधरी समर्थकश्च वर्तेते एवमेव एमाले दलस्य सांसदस्य भट्टराई इत्यस्य प्रस्तावके शान्ता चौधरी समर्थके कृष्णभक्त पोखरेलश्च स्तः प्रतिनिधि सभायाः गतदिवसीयोपवेशे सार्वजनिक लेखा समितेः द्वाविंशम् वार्षिक प्रतिवेदनम् प्रस्तुतम् वर्तते समितेः सभापतिः भरत कुमार शाह सार्वजनिक लेखा समितेः एतद् विक्रम वर्षीयम् द्वाविंशम् वार्षिक प्रतिवेदनमिदम् उपवेशे प्रस्तोत उपवेशेन प्रतिनिधि सभायाः पञ्चसप्तत्यधिक द्विसहस्रतम विक्रमाब्दीयायाः नियमावल्याः सप्तसप्तत्यधिक शततम नियमस्य अनुसारेण संघटितायम् संसदीय विशेष समितौ विद्यमानस्य सदस्यस्य नाम परिवर्तनात्मकः प्रस्तावः स्वीकृतो वर्तते उपवेशे 63-2000 विक्रमाब्दम् नेपाल नागरिकताधिनियमम् संशोधयितुम् निर्मितस्य एतद् विक्रमाब्दीय नेपाल नागरिकता प्रथम संशोधन विधेयकस्य सैद्धान्तिक विमर्शने भागम् गृह्णन्तः सांसदः विधेयकम् तत्कालम् पारितीकर्तुम् बलम् प्रादुः नागरिकता प्राप्तेः असामर्थ्यात् सहस्रशो नागरिकाः राज्येन प्रदत्ताभ्यो विभिन्नाभ्यः सेवाभ्यो वञ्चिताः सन्तीति तर्कयन्त सांसदः अप्राप्त नागरिकतानाम् यूनाम् समस्याः गभीरेण बोद्धुम् अन्वरुन्धन् उपवेशे सांसदाः कृष्णभक्त पोखरेलः पद्मा कुमारी अरियालः मिनेन्द्र रिजालः लक्ष्मणलाल कर्णः अनिल कुमार झा दिव्यमणि राज भण्डारी सूर्यप्रसाद पाठक विमला विश्वकर्मा संग रंगमती साई गजेन्द्र बहादुर महत अञ्जना विशंखे देवेन्द्र राज कणेल डीला संग्रौलाच विचारान् प्राकटयत् प्राकटयन् प्रतिनिधि सभायाः अपरोपवेश अद्य दिवा एकवादने पुनर्वसति राष्ट्रिय सभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीय सामाजिक सुरक्षा प्रथम संशोधन विधेयकम् उद्दण्डन परादुद्दण्डन कार्यविधि सम्बद्धानाम् कतिचित् अधिनियमानाम् संशोधन विधेयकम् च सर्वसम्मत्या पारितीकृते स्तः एवमेव उपवेशेन एतद् विक्रमवर्षीय नेपाल प्रहरी प्रदेश प्रहरी कार्य सञ्चालन सुपरिवेक्षण समन्वय प्रथम संशोधन विधेयकम् यौन हिंसा विरूद्धानाम् कतिचित् अधिनियमानाम् संशोधन विधेयकम् च बहुमतेन पारितीकृते विद्यते एवमेव उपवेशे गतार्थिक वर्षीय सबल विकास सुशासन समितेः वार्षिक प्रतिवेदनम् विधायन व्यवस्थापन समितेः वार्षिक प्रतिवेदनम् च प्रस्तुते स्तः तत्पूर्वम् उपवेशस्य विशेष समये सांसदः नारायणकाजी श्रेष्ठः एसपीपी संविधायाः अस्वीकृतेः सम्बन्धे सर्वकारेण विहितस्य निर्णयस्य विषये अमेरिका देशीय सर्वकाराय कूटनीतिक माध्यमेन तत्कालं पत्रं लेखनीयम् इत्यवोचत् सांसदः श्रेष्ठः अधिशासकेन महाप्रसाद अधिकारिणा विवादोद्भवनानन्तरं स्पष्टीकरणमपि न प्रदत्तमिति तर्कयन् अवोचत् अधिशासकेन पदात्यागपत्रं प्रदेयम् उपवेशस्य विशेष समये सांसदाः भैरव सुन्दर श्रेष्ठः प्रकाश पन्थ बेदुराम भूषाला हिमलाल देवकोटा विमला राई पौडेल विमला घिमिरे नारायण दत्त मिश्रश्च सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन् राष्ट्रिय सभायाः अपरोपवेशः श्रावणस्य द्वितीय दिवसे दिवा एकवादने पुनर्वस्था नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशे ह्योऽपि सदस्याः धारणाः प्रास्तुवन् ललितपुरस्य सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टे उपवेशे प्रतिनिधि सभायाः प्रदेश सभानां च आगामिनो निर्वाचनस्य सम्बन्धे सदस्याः विचारान् व्यक्तवन्तः उपवेशे दलस्य सबलीकरणस्य दलेन प्राप्तव्यस्य साफल्यस्य उपायस्य सामयिक राजनीतेश्च विषयेषु सदस्याः धारणाः उपस्थापयनीति दल प्रवक्ता डाक्टर प्रकाश महत अभोचत उपवेशे परराष्ट्र मन्त्री डाक्टर नारायण खड्का कतिचित् मन्त्रिणश्च सर्वकारेण विहितानाम् कार्याणाम् विषये सूत्रगत रूपेण उत्तरेण इत्यसौ अगदत् उपवेशः स्व आषाढस्य द्वात्रिंशे दिवसे शनिवासरे दिवा एकवादने पुनर्वस्तेति दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन प्रकाशितायं विज्ञप्तो ज्ञापितं वर्तते। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः भासते प्रतिशतम् अशीतेः विद्यार्थिनाम् अध्ययनस्थलस्य त्रिभुवन विश्वविद्यालयस्य पुनः संरचनायाः अनिर्माणम् यावद् उच्च शिक्षायाः गुणस्तरे वृद्धिः न सम्भवति। स्नातकोत्तरस्तरस्य प्रश्नपत्राणां पुनरावर्तनस्य सम्बन्धे विम्रष्टुं ह्यः सिंहप्रासादे उपविष्टे संसदः शिक्षा स्वास्थ्य समितेः उपवेशे मन्त्री पौडेलः अवोचत् प्रश्नपत्रस्य पुनरावर्तकाय अक्षरशः अनुकरणकर्त्रे शिक्षकाय दण्डनस्य विकल्पो नास्ति। त्रिभुवन विश्वविद्यालयस्य उपकुलपतिः धर्मकान्त बास्कोटा स्नातकतरस्य स्नातकोत्तरस्य स्नातकोत्तरस्तरस्य च चत्वारि प्रश्नपत्राणि परीक्षातः पूर्वमेव सार्वजनिककृतानि अक्षरशः अनुकृतानीति च स्वीकृतवान्। त्रिभुवन विश्वविद्यालयस्य प्रश्नपत्रेण मासत्रयात् पूर्वं संचालितायाः नैज महाविद्यालयस्य परीक्षायाः प्रश्नपत्रेण सह अक्षरशः मेलनस्य पश्चात् ज्येष्ठस्य अष्टादशे दिवसे मानविकी संकायस्य स्नातकोत्तर तरस्य तृतीय सत्रस्य अर्थशास्त्र विषयस्य स्थगितकृता परीक्षा श्रावणस्य प्रथमे दिवसे संचालयितेति च उपकुलपतिः बास्कोटा ज्ञापितवान्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति विज्ञान प्रविद्योः अधिकतम प्रयोगेण शिक्षा स्वास्थ्योद्योग पर्यटन प्रवृत्ति सर्वाणि क्षेत्राणि फलदायिनि विधातव्यानि। नेपाले विज्ञान सूचना प्रविद्योः नीति संवाद कार्यक्रमे ह्य अध्यक्ष प्रचण्ड अवोचत् मानव जातेः सेवायै विज्ञान प्रविद्योः उच्चतम प्रयोगो विधातव्य। कार्यक्रमे नेकपा एमाले दलस्य नेता घनश्याम भूषालः अकथयत् कर्मचारीतन्त्रे राजनैतिक दलेषु सर्वेषु च उचितेषु सत्स्वेव विज्ञान प्रविद्योः सदुपयोगः सम्भवति। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः कथयति संघीय प्रादेशिक निर्वाचनम् यावत् सत्तारूढ़ दलानां गठबन्धनस्य आवश्यकता वर्तते। प्रेस यूनियन संघस्य तनहु शाखाया दमौली स्थाने ह्य आयोजिते पत्रकारै सह मेलन कार्यक्रमे वरिष्ठ नेता पौडेलः स्थानीय स्तरस्य निर्वाचने इव मिलित्वा देशस्य संविधानस्य रक्षायै एकीभवितुं बलं प्रादात्। वरिष्ठ नेता पौडेलः अवोचत् नेपाल तैल निगमः खाद्य संस्थानञ्च त्रुटिः संशोध्य सर्वकारस्य पूर्ण स्वामित्वे संस्थापनीये। सुदूर पश्चिमाञ्चल साहित्य समाजेन वरिष्ठ साहित्यकारः नेपाल प्रज्ञा प्रतिष्ठानस्य पूर्व सदस्य सचिवश्च सनत रेग्मी वरिष्ठ कविः रेडियो नेपालस्य निर्देशकश्च डाक्टर नवराज लम्सालश्च सम्मानयिष्येते। नेपाली साहित्य क्षेत्रे विहितं विशिष्ट योगदानम् आलक्ष्य वरिष्ठ साहित्यकारं रेग्मीणम् अग्नि महाकाव्यस्य माध्यमेन समानतायाः पक्षे मुखरीकृतं स्वरम् आदृत्य वरिष्ठ कविं डाक्टर लम्सालं च लक्षेण सहस्रेण सतेन एकादशविश्च रूप्यकैः सह सम्मानयितुं निर्णीतमिति सुदूरपश्चिम साहित्य समाजो ज्ञापयति। गृहमन्त्री बालकृष्ण खाँड गोर्खा जनपदस्य आरूघाट ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य श्यामचेत स्थाने भूस्खलनेन विस्थापितेभ्य परिवारेभ्य तत्कालम् उद्धार सहयोग वासस्थानानां व्यवस्थां विधातुं निर्दिशति। गृहमन्त्री खाँड गृह प्रशासनम् मन्त्रालयस्य विपद व्यवस्थापन महाशाखां गोर्खा जनपदस्य प्रमुख जनपदाधिकारिणं शंकर हरि आचार्यं जनपदस्य सुरक्षा निकायाञ्च भूस्खलनेन विस्थापितानां परिवाराणाम् उद्धार कार्य न्यूनतां रोद्धुम् निरदिशत। भूस्खलनेन षड्गृहाणि ध्वस्तानि ग्राम एव संकटापन्नो स्थिति च प्रमुख जनपदाधिकारी आचार्यः ज्ञापितवान्। अविराल वृष्ट्याः कारणेन दोलखा जनपदस्य जिरी नगरपालिकायाः एकचत्वारिंशत् गृहाणि भूस्खलनस्य उच्च संकटे सन्ति।